ॐ वेङ्कटेशो वासुदेवः प्रद्युम्नो मितविक्रमः सङ्कर्षणो निरुद्धश्च शेषाधिपतिरेव च जनार्दनः पद्मनाभो वेङ्कटाचलवासनः सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः गोविन्दो गोपतिकृष्णः केशवो गरुडध्वजः वराहो वामनश्चैव नारायण अधोक्षजः श्रीधरः पुण्डरीकाक्षः सर्वदेवसुतो हरिः श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः रमानाथो महीभर्ता भूधरः पुरुषोत्तमः चोलपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः श्रीरामो रामभद्रस्य भवबन्धैकमोचकः भूतावासो गिरावासः श्रीनिवासश्रियपतिः अच्युतानन्दगोविन्दो विष्णुर्वेङ्कटनायकः सर्वदेवैकशरणम् सर्वदेवैकदैवतम् समस्तदेवकवचम् सर्वदेवशिखामणिः इतीदम् कीर्तितम् यस्य विष्णोरमिततेजसः त्रिकाले यः पठे नित्यम् पापम् तस्य न विद्यते राजद्वारे पठेद्धूरे सङ्ग्रामे रिपुसङ्कटे भूतसर्पपिशाचादि भयम् नास्ति कदाचन अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् यद्यदिष्टतमम् लोके तत्तत्प्राप्नोत्यसंशयः ऐश्वर्यम् राजसन्मानम् भुक्तिमुक्तिफलप्रदम् विष्णोर्लोकैकसोपानम् सर्वदुःखैकनाशनम् सर्वैश्वर्यप्रदम् नृणाम् सर्वमङ्गलकारणम् मायावी परमानन्दम् त्यक्त्वा वैकुण्ठमुत्तमम् स्वामि पुष्करिणी तीरे रमया सह मोदते कल्याणाद्भुतगात्राय नामितार्थप्रदायिने श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः वेङ्कटाद्रितमम् स्थानम् ब्रह्माण्डे नास्ति किञ्चनः वेङ्कटेशतमो देवो न भूतो न भविष्यति एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् इति श्रीवेङ्कटेशस्तोत्रम्।